सर्वेभ्यो नमः. एतत् गीतासोपान एषः गीतासोपानस्य वर्गः अस्ति. पूर्वं वयम् अभ्यासपुस्तकं कृतवन्तः, इदानीं गीतासोपानं कर्तुम् इच्छामः. तस्य पूर्वं वयं गतवर्गे एकां कथां पठितवतः. तत्र गृहपाठः आसीत् कथायाः सारं लिखतु इति. कथायाः सारम् इति अस्तु. कः वदति? नरेश महोदय वदति वा?
आं महोदय.
अस्तु,
कथासार. एकः धर्मनिष्ठः दानशीलः महाराजः आसीत्. एकदा सः एकं तापसं दानं दत्तम् इच्छन् पृष्टवान्, किं ददामि इति.
हा, तत्र पुनः महोदय, एकदा सः
एकं तापसं दानं दत्तम् इच्छन्.
तत्र तापसः इति अस्ति. तत्र तापसः इति तत् तापसः इति अकारन्त तापसाय इति प्रायशः तत्र चतुर्थीविभक्तिरूपम् अपेक्षितं महोदय.
नो चेत्
हा, नो चेत् तापसमेव ददामि इति भवति खलु. हा, पुस्तकं ददामि इति. हा, तापसाय इति प्रायशः.
दानं दत्तम् इच्छन् पृष्टवान् किं ददामि इति.
पृष्टवान्
तापसः महाराजस्य प्रियं वस्तुम् इष्टवान्.
महाराजस्य प्रियं वस्तुम् इष्टवान् अस्तु.
यदा महाराजः राज्यं कोशं समर्पितवान् तदा तापसः उक्तवान् तत्तु प्रजाजनानाम् अस्ति, न तु महाराजस्य. महाराजः राजभवनम् इत्यादि दत्तम् इष्टवान् परन्तु तापसः
दातुम् इष्टवान्
परन्तु
दृष्टवन्तः खलु अभ्यासपुस्तके.
परन्तु तापसः न स्वीकृतवान् यतः तानि अपि महाराजस्य न आसीत्.
तानि अपि महाराजस्य न आसन्.
न आसन्
बहुवचने अस्ति तानि इति.
महाराजस्य शरीरस्य विषये अपि तापसः कुमानम् उक्तवान्. तदा महाराजः तापसं पृष्टवान् किं ददामि इति. तापसः उक्तवान् भवतः अहङ्कारः भवदीय अस्ति, तत् ददातु. अहङ्कारं दानं कृत्वा महाराजः सम्यक् शासनं कृतवान्.
हा, समीचीनं, बहु समीचीनमस्ति महोदय. धन्यवादः. धन्यवादः. अत्र अहं वक्तुं विस्मृतवान्, एषा कथा अस्माकं वर्गस्य ब्लाक् बोर्ड् इति यद् अस्ति, कृष्णफलकं, तत्र लिङ्क् अस्ति. अपि गृहपाठः अपि स्मरणपत्रके अपि तत्र लिङ्क् अस्ति. तत्र कथा सर्वे द्रष्टुं शक्नुवन्ति इति मन्ये. अस्तु, बहु समीचीनमस्ति महोदय. अस्तु, अग्रे कः वदति? शोभा भगिनी वदति वा? उषा भगिनी वदति वा?
आं महोदय.
अस्तु, उषा भगिनी वदतु. अस्तु.
एतद् भवदीयं, कस्मिंश्चित् देशे धनिष्ठः दानशीलः एकः महाराजः आसीत्.
धर्मनिष्ठः
एकस्मिन् दिने एकः तापसः राजभवनम् आगतवान्. महाराजः सन्तोषेण तस्य प्रणामं कृत्वा अनन्तरम् उक्तवान् यत् तस्य आगमनेन महाराजस्य राजभवनं पवित्रम् अभवत् इति. महाराजः तापसाय अत्यमूल्यं किमपि दातुम् इच्छति स्म, अतः तापसाम् अपृच्छन् यत् तस्मै किं देयम्. अपृच्छत् यत् तस्मै किं देयम् इति तापसः उक्तवान् तव अत्यन्तं प्रियं वस्तु मह्यं ददातु इति. महाराजः राज्यं कोशं राजभवनं दातुम् इच्छति स्म, परन्तु
इष्टवान्
राजभवनम्
इच्छति स्म इति मास्तु, इष्टवान् इति तत्र सम्यक् भवति.
इष्टवान् परन्तु तापसः अवदत् यत् तत् सर्वमपि प्रजाजनानां भवति, राजा रक्षणमात्रं करोति इति. महाराजः तस्य शरीरमेव दातुम् इच्छति स्म.
इष्टवान्
ओके. ततः तापसः अवदत् यत् तदुपरि पुत्राणाम् अधिकारः अस्ति. अनन्तरं तापसः उक्तवान् राजन् भवतः मनसि यः अहङ्कारः अस्ति सः पूर्णतः भवदीय एव, तस्य दानं करोतु, यतः अहङ्कार एव सर्वविद्यस्यापि बन्धनस्य कारणम् इति. महाराजः अहङ्कारं त्यक्त्वा योगी इव शासनं कृतवान्.
बहु समीचीनमस्ति भगिनि. तत्र किमर्थम् अहम् इष्टवान् इति समीचीनं न तु इच्छति स्म इति, किमर्थं चेत् इच्छति स्म इत्युक्ते इष्टवान् इति एकवारं भवति. इच्छति स्म इत्युक्ते बाल्यकाले अहं पाठशालां गच्छामि स्म. तत्र भवती बाल्यकाले पाठशालाम् एकवारं गतवती अथवा अनेकवारं गतवती?
अनेकवारं.
बहुकालं गतवती खलु, अतः अहं पाठशालां गच्छामि स्म इति. तद्युक्ते बहुवारम् एतत् कार्यम् अभवत् इति. किन्तु सः एकवारमेव किमपि दातुम् इष्टवान् खलु. इच्छति स्म इत्युक्ते कण्टिन्यूस् इति वदामः, कण्टिन्यूस् पास्ट् इति. किमपि दीर्घकाले किमपि भवत् अभवत् इति तादृश अर्थे अस्ति. इष्टवान् इत्युक्ते एकवारं तद् इष्टम् आसीत् इति, इच्छा आसीत् इति.
धन्यवादः
महोदय. समीचीनमस्ति वा?
आं महोदय.
अस्तु, समीचीनं, सर्वं समीचीनम्. अन्यत् सर्वं समीचीनमेव अस्ति भगिनि. धन्यवादः. अस्तु, अग्रे शोभा भगिनी वदति वा?
आं महोदय, अहं भवतः सूचनां भिन्नरीत्या अवगच्छामि. मम पार्श्वे अतीव संक्षिप्त टिप्पणी अस्ति.
टिप्पणी अपि समीचीनमेव भगिनि, चिन्ता मास्तु. एतत् कार्यं, गृहपाठस्य कार्यं केवलम् अस्ति कथायाः विषये किञ्चित् अधिकं चिन्तनं करोतु, तस्य उपरि किमपि वदतु इति, तदेव.
अस्तु महोदय. यथा राजः अनुभवति तथा अहङ्कारेण वयं वास्तविकत्वं न द्रष्टुं शक्नुमः, तदेव अज्ञानम् अस्ति. तापसः पश्यति यद्यपि राजः अतीवगुणशीलः सात्विकः च अस्ति तथापि अज्ञानी अस्ति. परन्तु तापसः जानाति राजः ज्ञानं प्राप्तुम् अर्हम् एव, अतः सः तत्र आगतवान् अपि सम्भाषणं मात्रेण राजस्य अज्ञानं दूरीकृतवान्.
तस्य अज्ञानं दूरीकृतवान्. तस्य अज्ञानं
दूरीकृतवान्. तदेव महोदय.
समीचीनमस्ति भगिनि, बहु बहु समीचीनमस्ति. लघु केवलं वाक्यद्वयं त्रयम् इति मा चिन्तयतु, बहु समीचीनमस्ति. बहु समीचीनमस्ति. धन्यवादः भगिनि.
धन्यवादः महोदय.
बहु समीचीनमस्ति. अस्तु, अग्रे कः वक्तुम् इच्छति? मेहुल् महोदय. अस्तु.
एकः धर्मनिष्ठः दानशीलः च महाराजः कश्चन तापसं कमपि अति अमूल्यम् उपहारं दातुम् इच्छति. महाराजः स्वस्य राज्यकोशस्य रथादिकस्य अपि च शरीरस्य दानं कर्तुम् इच्छति. परन्तु तापसः एतत् सर्वं न स्वीकरोति. किमर्थम् इत्युक्ते महाराजः राज्यकोशस्य संरक्षणमात्रं करोति, रथादिकं तस्य कार्ये सौविध्यकल्पनाय एव दत्तम्. अपि च तस्य शरीरं भवतः मातापितृभ्यां दत्तम्. तदुपरि भवतः पुत्राणाम् अधिकारः भवति. तदा महाराजस्य मनसि यः अहङ्कारः अस्ति सः पूर्णतः तस्य अस्ति. अतः तस्य एव दानं करोतु इति तापसः उक्तवान्. एतत् श्रुत्वा महाराजः अनासक्तभावेन शासनं कर्तुं सङ्कल्पित अभवत्.
पुनरेकवारं वदतु महोदय,
अन्तिमवाक्यमस्ति. एतत् श्रुत्वा महाराजः अनासक्तभावेन शासनं कर्तुं सङ्कल्पित अभवत्.
अस्तु अस्तु, अनासक्तभावेन. अस्तु अस्तु महोदय, बहु समीचीनमस्ति महोदय. धन्यवादः.
धन्यवादः.
बहु समीचीनमस्ति. अस्तु, अग्रे कः वक्तुम् इच्छति? वंशीसुरभगिनी भवती वदति वा?
क्षम्यतां महोदय, अहं न कृतवती.
अस्तु अस्तु अस्तु, चिन्ता मास्तु भगिनि. वेणुगोपाल् महोदय.
महोदय, किन्तु मम सारं किञ्चित् भिन्नः.
चिन्ता मास्तु महोदय, वदतु. एतत् सम्भाषणवर्गः अस्ति, सम्भाषणस्य अभ्यासः भवतु तावदेव. अस्तु.
कथासारम् एवम् अस्ति. कथायाः सारम् एवम् अस्ति. अस्माकं पार्श्वे बहूनि वस्तूनि सन्ति, किन्तु कोऽपि स्वार्जितं नास्ति. न तु अस्माकं गृहं, न तु अस्माकं शरीरं, न तु अस्माकं धनम्. अहङ्कारेव स्वार्जितम् अस्ति. अहङ्कारमेव सर्व बन्धनस्य कारणं तु अस्ति. अतः यदि वयम् अहङ्कारं त्यजामः चेत् योगी भवामः. एषा वार्ता कथायाः सारम् अस्ति.
बहु समीचीनमस्ति महोदय. तत्र यदि अस्ति चेत्, यदि अस्ति, यदि अपि चेत्, द्वयमपि आवश्यकं नास्ति, केवलम् एकस्य एव. अपि द्वितीयवाक्यं, वस्तूनि, अनेकानि वस्तूनि
सन्ति,
वस्तूनि सन्ति एव. भवान् सम्यक्तया उक्तवान्, किन्तु तस्य अग्रिमवाक्यं, तदनन्तरम् अग्रिमवाक्यं किम् आसीत्?
किन्तु कोऽपि स्वार्जितं नास्ति.
तत्र कोऽपि इति, किन्तु पूर्वं वस्तूनि इति नपुंसकलिङ्गे अस्ति इति कृत्वा, किमपि किमपि इति, कोऽपि इत्युक्ते कः इति, तत् पुल्लिङ्गे भवति. तत् किमपि इति तावदेव.
किमपि
न, बहु समीचीनमस्ति महोदय, बहु समीचीनमस्ति. अस्तु अस्तु, भानुचेतनी महोदय वक्तुमिच्छति वा?
किञ्चित् अनन्तरं महोदय.
अस्तु अस्तु, गीताञ्जलि भगिनी वदति वा? अस्तु, रघुपति
महोदय, क्षम्यताम्, अनन्तरं
अस्तु 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 भगिनि, चिन्ता मास्तु. अस्तु, रघुपति महोदय वक्तुम् इच्छति वा?
महोदय, अहं न कृतवान् परन्तु किञ्चित् लिखितवान्, तदेव अहं
महोदय. किं किमपि अस्तु.
एकः राजा आसीत्. एकदा तत्र राजभवने एकः तापसः आगतः.
राजभवनम् एकः तापसः आगतः.
राजा तापसाय दानं दानं कर्तुम् ऐच्छत्. अतः सः तापसं पृष्टवान्, भवान् किम् इच्छसि इति. तापसः राज्ञा अहङ्कारं भङ्गं कर्तुं चिन्तितवान्. अतः सः वदति यत् वस्तु तव नास्ति तदेव ददातु इति. तव नास्ति, तव नास्ति इति.
तव यद्वस्तु तव अस्ति इति खलु?
यद्वस्तु तव अस्ति, तदेव ददातु. अस्ति, सारि, नास्ति ददातु इति. राज्ञः चिन्त्य राजः चिन्तयति स्म तस्य राज्ये यत्किमपि वस्तु अस्ति, वस्तूनि सन्ति, तेषाम् उपरि तस्य एव अधिकारः अस्ति इति. परन्तु तापसः वदति यानि वस्तूनि तव राज्ये अस्ति तानि तव तानि तव नास्ति,
तानि सर्वाणि
तस्य नास्ति, तस्य नास्ति इति.
तस्य क्षम्यतां, तस्य न सन्ति इति. तानि सर्वाणि तस्य न सन्ति. बहुवचने तानि सर्वाणि.
परन्तु परन्तु तव तव मनसि अहङ्कारः अस्ति, तदुपरि तव तस्य उपरि तव अधिकारः अस्ति, अतः तदेव दानरूपेण ददातु इति. तपसस्य वचनेन राज्ञः ज्ञानोदय अभवत्.
तापसः प्रायशः
तापसः तापसः षष्ठीभक्ति
तापसः इति मन्ये महोदय. तत्र न स्मरामि तापसः इति. तपस्विन् भिन्नपदम् अस्ति. एतत् तापसः इति. तापसः
राज्ञः एव. तापसः वचनेन राज्ञः राजस्य राज्ञः षष्ठीभक्ति
राज्ञः महाराजस्य अथवा राज्ञः
राज्ञः ज्ञानोदय अभवत्.
ज्ञानोदयः
अभवत्
अभवत्. अस्तु, बहु समीचीनमस्ति महोदय. बहु समीचीनं, धन्यवादः. अस्तु
महोदय, अहं द्वे वाक्यमेव लिखितवती.
अस्तु, यत् वाक्यद्वयं
किञ्चित् नीति इति सारांश इति
वदामि.
एतत् कथाया नीति
एषा कथा एषायाः कथायाः
एषायाः कथायाः नीति उत्तम नीति उत्तमा भवति.
नीतिः
उत्तमः भवति.
उत्तमा नीतिः इति
स्त्रीलिङ्ग
स्त्रीलिङ्गि इति स्त्रीलिङ्गपदम् इति मन्ये, सत्यं वा?
आम् अहं चिन्तयामि महोदय. नीतिः या नीतिः
इति स्त्रीलिङ्गपदम् इति मन्ये भगिनि.
नीतिः इति स्त्रीलिङ्गे इत्युक्ते उत्तमा एव भवति.
नीति
नीति यदि स्त्रीलिङ्गे अस्ति चेत् उत्तमा.
स्त्रीलिङ्गे अस्ति, नीति स्त्रीलिङ्गे एव.
अहं तदेव नीतिः उत्तमा भवति. यत्र अहम् इति उच्चारणं करणीयं तत्र मम अहङ्कार एव अस्ति.
पुनरेकवारं द्वितीयवाक्यं भगिनि.
यत्र अहम् इति अहम् इति उच्चारणं करोमि तत्र मम अहङ्कार एव अस्ति. अहमिति पदे अहङ्कारम् एव अस्ति. अहङ्कार अन्तःकरणचतुष्टय चत्वारपादः अस्ति, चत्वार अंशः अस्ति.
अहङ्कारस्य अथवा अहङ्कारे
न अन्तःकरणचतुष्टये चतुर्थिपादः अहङ्कारः अस्ति महोदय.
मनसि अस्तु अस्तु, पुनरेकवारं वदतु.
अन्तःकारे
चत्वारः भागाः सन्ति,
अहङ्कारः सन्ति. अहङ्कार ममकार एव विषयात्मकवस्तूनि भान्तति.
अस्तु,
यदि वयं द्वयोः त्यजामि चेत् मम द्वयोः
द्वयमपि त्यजामः,
द्वयं त्यजामश्चेत् चेत् मम जीवन्मुक्ति भवति.
यदि वयम् इति अस्ति
जीवन्मुक्ति
अस्माकम्
अहं क्षम्यता महोदय. यदि वयं द्वयं त्यजाम चेत् मम जीवन्मुक्ति अस्माकं जीवन्मुक्ति भवति.
जीवन्मुक्तिः भवति, बहु समीचीनमस्ति भगिनि. जीवन्मुक्तिः भवति, समीचीनमस्ति भगिनि.
धन्यवादः,
धन्यवादः. बहु समीचीनमस्ति, किमर्थं क्षम्यताम् इति वदति, बहु समीचीनं.
धन्यवादः,
धन्यवादः भगिनि. अस्तु, हा, अन्य कोऽपि वक्तुम् इच्छति वा? बहु समीचीनमस्ति. हा, यद्यत् सर्वे उक्तवन्तः.
हरिः ओं महोदय, कोऽपि अन्यः नास्ति चेत् अहं वदामि.
अस्तु महोदय, बालचन्द्र महोदय वदतु.
नितरां धर्मनिष्ठाः दानशीलाः महाराजः राज्यं महाराजः कोऽपि तापसाय किमपi दातुम् इच्छति.
तत्र कोऽपि कस्मै अपि तापसाय इति प्रायशः
कस्मैपि महोदय
तादृश भवति. तत्र कः कोऽपि इति तत्र
कस्मैश्चित् कस्मैश्चित् तापसाय. ओके
महोदय वदतु महोदय, सम्यक् प्रयोगं किं
न जानामि. कस्मैश्चित् तापसाय
तत्र कस्मिंश्चित् इति साधारणतया शृण्मः, तादृश एव अत्र चतुर्थीविभक्तिरूपम् अपेक्षितमस्ति महोदय.
कस्मिंश्चित् तु कः विभक्तिः महोदय?
सप्तमी. अस्मिन् कस्मिन् इति
आम्
अत्र कस्मै,
किन्तु तापसाय तु चतुर्थी विभक्ति एव.
अतः कस्मै इति चतुर्थी विभक्ति, कस्मैश्चित् इति प्रायशः भवति तत्र.
महाराजः कस्मैश्चित् तापसाय किमपि दातुम् इच्छति. तद महोदय
समीचीनं.
तस्य इच्छार्थं तापसः अत्यन्तं प्रियं वस्तुं ददातु इति वदति. भूपालः धनं, रथाः, राजभवनं, शरीरं क्रमशः दातुम् उद्युक्तवान्.
उद्युक्तः
संन्यासः न अङ्गीकृतवान् यतः राजा विस्मयः जातः.
तस्य तदनन्तरं किम् अन्तिमवाक्यं महोदय?
यतः राजा विस्मयः जातः.
राज्ञस्य विस्मयः जातः यतः इति कारणं भवति, अतः इति कार्यं भवति, एफेक्ट्
महोदय.
हा,
पूर्णं महोदय. राजा विस्मयजातः सम्यक् प्रयोगं वा महोदय? न
विस्मयः, तस्य विस्मयः जातः खलु. राजः स्वयं विस्मयः न अभवत् खलु, तस्य विस्मयः जातः. अतः राज्ञः, षष्टिविभक्ति अपेक्षितम् अत्र, राज्ञः विस्मयः जातः इति.
राज्ञः महोदय,
हा राज्ञः इति,
राजन् शब्दः महोदय,
हा राजन् इति, हा
आं महोदय,
तस्य षष्टि. हा
लोके यत् सर्वम् अस्ति तत् सर्वम् अन्यैः दातुम् एव, अन्यैः दत्तमेव.
लोके यत् सर्वं
पुनर्सर्वम् अस्ति
अन्यैः दत्तम् अस्ति. दत्तम् अन्यैः दत्तम्.
तत् केवलं संरक्षणार्थं दीयते.
संरक्षणार्थं दीयते, अस्तु.
मम पार्श्वे केवलं मम अहङ्कारमेव अस्ति.
हा, तत्र अहङ्कारः इति कथायामपि अहङ्कारः इति पुल्लिङ्गे एव अस्ति, यः अहङ्कारः इति.
महोदय, अतः तद् दातुमेव शक्यते.
तम् इति, अहङ्कारः, मम अहङ्कारः इति यद् भवान् उक्तवान्, सर्वं यत् सर्वम् अस्ति तद् अन्यैः दत्तम् अस्ति. तदनन्तरं भवतः वाक्यं किम् आसीत्?
मम पार्श्वे केवलं मम अहङ्कारमेव अस्ति.
मम अहङ्कारः एव अस्ति, पुल्लिङ्गे अस्ति तत्र. मम अहङ्कारः एव अस्ति,
तदेव दातुं शक्यते.
हा, किन्तु तत् इत्युक्ते तद् नपुंसकलिङ्गं भवति महोदय. सः तत् इति प्रथम अथवा द्वितीयविभक्तौ, तत् पुस्तकं तत् पुस्तकं, किन्तु सः रामः तं रामम् इति भवति. सः अहङ्कारः तम् अहङ्कारं दातुं. तद् इत्युक्ते तत् इति पदस्य अन्वयः कुत्र अस्ति इत्युक्ते तत् पदं
यदहङ्कारं तदहं,
किन्तु तद् अहङ्कारम् इत्युक्ते अहङ्कारम् इति पदस्य लिङ्गं यदस्ति तदेव. हा, तद् पदमपि, अतः हा, समीचीनमस्ति महोदय, धन्यवादः. धन्यवादः, अस्तु. हा, अस्तु, बहु समीचीनमस्ति. इदानीं बहुवारं वयम् एषायाः कथायाः सारः अनेकरीत्या अत्र उक्तम् अस्ति, अतः सर्वे अवगतवन्तः इति तत्र तु संशयः एव नास्ति. हा, बहु समीचीनम् अस्ति. अस्तु, अग्रे इदानीं गच्छामः. वयम् अद्य, अहं चिन्तयामि, तत्र गीतासोपानस्य एव तत्र किञ्चित् उद्घाटनं कुर्मः अद्य. अस्तु, तत्र गीतासोपानस्य प्रथम तत्र तृतीयपुटे यदस्ति विद्धि माम् इति, तत्र गीतासोपानस्य प्रायशः दश पुटानि अथवा विंशतिपुटानि पुटं किमपि क्षम्यतां तत्र प्रथमभागे किञ्चित् वयम् अभ्यासपुस्तके एव दृष्टवन्तः किन्तु अभ्यासपुस्तके लघुरीत्या वयं दृष्टवन्तः अत्र किञ्चित् अधिकं अभ्यासमपि कर्तुं शक्नुमः अत्र किन्तु बहु सुलभं भवति तत्र अस्तु एकवारम् अत्र कः पठति अस्तु रघुपतिमहोदय भवान् आरम्भं करोति वा तत्र विद्धिमाम् इति यदस्ति
विद्धिमां विद्धिमां मम भवतः भवत्याः एतस्य प्रयोगः एतान् प्रयोगः मम नाम तस्य प्रयोगः ओके मम नाम कुचेलः भवतः नाम किं मम नाम कृष्णः मम नाम सागरिका भवत्याः नाम किं मम नाम सुनीता भवतः नाम किं मम नाम कङ्कः कङ्कः कण्ड कङ्कः ओके भवति कङ्कः भवत्याः नाम किं मम नाम सैरन्ध्री
इति धन्यवादः महोदय एतत्तु सर्वे जानन्ति इति मन्ये किन्तु एतस्य प्रयोगः बहुवारं वयं कुर्मः इति कृत्वा तत्र वयम् एतत् कुर्मः अनेकाः जनाः अत्र सन्ति तत्र अहम् एकवारं वदामि के सन्ति इति तत्र रघुपति आचार्य अस्ति गीताञ्जलिभगिनी अस्ति वेणुगोपालमहोदय अस्ति उषाभगिनी अस्ति भानुचैतन्यमहोदय अस्ति नरेशमहोदय अस्ति मधुसूदनमहोदय अस्ति मेहुलमहोदय अस्ति वंशीसुधाभगिनी अस्ति शोभाभगिनी अस्ति अस्तु अतः भवन्तः अहम् एकं पृच्छामि कोऽपि आरम्भं करोति एक कमपि चित्वा तस्य तं प्रश्नं पृच्छन्तु अस्तु अस्तु हा भानुचैतन्य महोदय भवान् एव आरम्भं करोतु भवतः भवती का अपि प्रश्नद्वयं पृच्छतु भवती का भवतः नाम किं तु अथवा भवत्याः नाम किं तु तत् आवश्यकता नास्ति भवती का इति तादृश किमपि वदतु प्रश्नद्वयं भानुचैतन्य महोदय कं पृच्छति अथवा कां पृच्छति तत्र वंशीसुधा भगिनी अस्तु वंशीसुधा भगिनी भवती एव उत्तरं ददाति अस्तु
किं
करणीयं महोदय
तत्र प्रश्नद्वयं करोतु भवती का भवती किं करोति इति तादृश
वंशीसुधा महोदय किं करोति
अहं संस्कृतकक्षायाम् अस्मि
अस्तु धन्यवादः इदानीं वंशीसुधा भगिनी भवती कमपि अथवा काम् अपि पृच्छतु
अहं शोभा भगिनीं पृच्छामि
अस्तु
आम् आं भगिनि
भवती कुत्र संस्कृतं पठति
कुत्र अहं गृहे संस्कृतं पठामि
भवती कदा अभ्यासं करोति
अहं सायङ्काले अथवा मध्याह्नकाले अभ्यासं करोमि
समीचीनं
धन्यवादः
अस्तु इदानीं शोभा भगिनी भवती एव प्रश्नं करोतु
अहं वंशीसुधा भगिनी प्रति प्रश्नं
अन्य कोऽपि
अस्तु महोदय
तत्र अहं वदामि तत्र गीताञ्जलिभगिनी अस्ति उषा भगिनी अस्ति नरेश महोदय अस्ति मधुसूदन महोदय अस्ति मेहुल महोदय अस्ति वेणुगोपाल महोदय अस्ति रघुपति महोदय अस्ति
उषा भगिनी भवती किम् आहारम् इच्छति
अहं किम् आहार अहम् इड्लि इच्छामि
अहमपि
इड्डलिका
इड्लीम् इड्लिका
इति
इड्डलिका इति अस्ति वा महोदय अस्तु
श्रुतवान् न जानामि इड्डलिका इति
अस्तु अहं न जानामि महोदय अस्तु
अद्य
अहम् अण्डम् इच्छामि
अस्तु भवती अद्य कुत्रापि गच्छति वा
न भगिनी अहं गृहे गृहे एव
अस्मि
अस्मि
अस्तु समीचीनं धन्यवादः अस्तु उषा भगिनी इदानीं भवती पृच्छतु
भवती यः
न न इदानीम् अन्य कोऽपि पृच्छतु तत्र मधुसूदन महोदय मेहुल् महोदय वेणुगोपाल् महोदय रघुपति आचार्यः नरेश् महोदय अस्ति गीताञ्जलि भगिनी अस्ति
मधुसूदन महोदय
अस्तु
इह भवान् किं करोति करोषि
अहं यः अत्र अत्र गुरुकुल केन्द्रं गतवान्
भवान् परश्वः किं करोति
परश्वः अहं कार्यानं गमिष्यामि
धन्यवादः
अस्तु इदानीं मधुसूदन महोदय भवान् एव पृच्छतु
अहं मेहुल् मेहुल्
महोदयं
पृच्छामि भवान् अद्य किं करोति अद्य अहं संस्कृतं पठामि भवान् कः कुत्र वसति अहं राले नगरे वसामि
हा समीचीनं धन्यवादः इदानीं मुहुल् महोदय भवान् एव पृच्छतु
अहं रघुपति महोदयं पृच्छामि
अस्तु
महोदय भवतः गृहे के के सन्ति
भवतः गृहे मम भार्या अपि च मम पुत्रः अपि पुत्री अपि अस्ति
अस्तु अस्तु धन्यवादः भवान् कुत्र कार्यं करोति
अहं कर्णाटकराज्यस्य मेङ्ग्लूर् नगरे अस्मि तत्र कार्यं करोमि
अस्तु धन्यवादः
कुर्वन् अस्मि कार्यं कुर्वन् अस्मि
धन्यवादः अस्तु इदानीं रघुपति महोदय तत्र नरेश् महोदय अस्ति वेणुगोपाल् महोदय अस्ति अपि गीताञ्जलि भगिनी अस्ति
नमस्कार महोदय भवतः नाम किं
कं पृच्छति
वेणुगोपाल्
वेणुगोपाल् महोदय अस्तु अहं न जानामि अस्तु वेणुगोपाल् महोदय
नमस्कार महोदय मम नाम वेणुगोपाल
नमस्कार वेणुगोपाल् महोदय भवान् किं करोति
अहम् एक इञ्जिनियर् अस्ति
अस्मि
इञ्जिनियर् संस्कृतभाषायां किम् अस्ति न जानामि महोदय किन्तु
तन्त्रज्ञः
तन्त्रज्ञः अस्ति
समीचीनं महोदय महोदय भारते एव वसति वा कोऽपि
महोदय आम् महोदय अहम् अमेरिकादेशे डेट्रायिट् नगरे निवसामि
धन्यवादः महोदय
समीचीनं इदानीं वेणुगोपाल् महोदय भवान् एव पृच्छतु तत्र
नरेश् महोदय पृच्छामि
नरेश् महोदय अस्तु
नमस्कारः महोदय भवतः कुत्र निवसति
भवान् कुत्र वसति
वसति कुत्र वसति महोदय
अहं कोलम्बस् नगरे एव वसामि
ओ अस्तु भवता किं कार्यं करोति
भवान् किं कार्यं करोति
भवान् किं कार्यं करोति
अहं कार्यं निवृत्त अस्मि
किञ्चित् पुनः वदतु महोदय अहं न शृणोमि
अहं कार्यं निवृत्तम् अस्मि
अस्तु अस्तु महोदय अस्तु
धन्यवादः धन्यवादः वेणुगोपाल् महोदय समीचीनं हा इदानीं नरेश महोदय गीताञ्जलि भगिनीं पृच्छतु हा
गीताञ्जलि भगिनी भवती कुत्र वसति
नमस्कारः महोदय अहं केन्सस् लारेन्स् नगरे वसामि
भवती किं करोति
अहं अहं गृहे वस गृहकार्यं
गृहिणी अस्मि गृहिणी अस्मि
गृहिणी अस्मि किन्तु विश्वविद्यालये अहं पाठितवती स्म न
धन्यवादः महोदय नरेश महोदय इदानीं गीताञ्जलि भगिनी भानुचैतन्य महोदयं पृच्छतु
नमस्कार महोदय भानुचैतन्य महोदय भवतः संस्कृतं सुन्दरम् अस्ति कति वर्षाः संस्कृतं पठति
वर्षाणि इदानीं तु व्याकरणं पठामि पूर्वं मया पठितमेव
अहं न
महोदय इदानीम् अहं संस्कृतव्याकरणं सम्यक् रीत्या पठामि पूर्वं संस्कृतं पठितं
कति 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 वर्षाः
वर्षद्वयं
वर्षद्वयं धन्यवादः महोदय
धन्यवादः सर्वेभ्यो धन्यवादः अस्तु एतत् सम्भाषणं बहु सम्यक् आसीत्
भवानेव न उक्तवान् महोदय
अहं बहुवारम् उक्तवान्
भवान् कुत्र कार्यं करोति संस्कृतं कदा अभ्यासं करोति महोदय
अस्तु 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 अहं अमेरिकादेशे वसामि अहम् अत्र मेरिलेण्ड् नगरे मेरिलेण्ड् प्रदेशे अस्मि अत्र मेरिलेण्ड् विश्वविद्यालये अहं पाठयामि अहं बेङ्गलूर् नगरतः अस्मि तत्र प्रौढशालायाम् अहं संस्कृतं पठितवान् किन्तु तत्तु बहु वर्षपूर्वम् आसीत् अत्र संस्कृतभारत्याः वर्गः यद् आसीत् वर्षद्वयं वर्षत्रयं पूर्वं किमपि तत् आरभ्य अहं संस्कृतं पुनः पठितुम् आरब्धवान्
बहवः धन्यवादः महोदय
अस्तु अस्तु इदानीं तत्र गीतासोपाने तत्र प्रथमपुटे या द्वितीयपुटे एतत् सर्वं बहु सरलम् अस्ति किन्तु उक्त्वा एव तद् मम अहं चिन्तयामि शरीरे गच्छति केवलं मनसि अस्ति चेत् तत् सम्यक् नास्ति एतदेव संस्कृतभारत्याः उद्देशः अपि यदि पठामः तत्तु अवगच्छामः किन्तु केवलं पठनं न तत् सम्भाषणे अपि बहिः आगच्छति चेत् बहु समीचीनम् अस्ति इति कृत्वा संस्कृतभारत्याः एतत् गीता अस्ति भगीरथ धीर भगीरथ इति सर्वे श्रुतवन्तः वा तत्र संस्कृतभारत्याः एक गीता अस्ति तत्र भगीरथ भगीरथ इति तत्र भवति भगीरथः किमर्थम् इत्युक्ते सर्वे संस्कृतं जानन्ति बहुवारं श्रुतवन्तः अपि किन्तु तत् सर्वं मनसि एव अस्ति मनसि यत् संस्कृतमस्ति तद् गङ्गा इव स्वर्गे गङ्गा इव मनः अस्ति तत्र गङ्गा स्वर्गम् इव तत्र गङ्गा अस्ति किन्तु गङ्गा स्वर्गे अस्ति चेत् किमपि उपयोगं नास्ति खलु भूमिम् आनीतव्यं खलु तादृशः अपि यत् संस्कृतम् अस्माकं मनसि अस्ति तत् बहिः आगन्तव्यं तदेव तत्र एव अस्माकं कार्यम् अस्मिन् वर्गे तत् सर्वं यद् अवगच्छामः कथां पठामः अवगच्छामः किन्तु तत् सम्भाषणरूपेण बहिः आगच्छतु इति अस्तु अतः यत् अत्र अस्ति एतत् सरलमेव अस्ति किन्तु पुनः सम्भाषणे एतत् सर्वम् उपयुज्य कुर्मश्चेत् बहु लाभः इति तावदेव अस्तु अग्रिम भवान् मम भवतः भवत्याः इति तद् वयम् अवगच्छामः सहसा तत् एषः एषा एतत् यदस्ति तत्र एतदपि अस्तु एकवारं पृच्छामि अत्र चतुर्थपुटे अथवा पञ्चमपुटे यदस्ति तत्र किमपि करणीयम् अस्ति वा अथवा सर्वे अवगच्छन्ति वा तत्र
महोदय अहं गृहकार्यं करोमि सर्वेपि सरलमेव अस्ति
अस्तु अतः वयं किं कुर्मः तत्र यत् अभ्यासः अस्ति तद् अभ्यासपुस्तके केवलम् एकवचनम् अपि बहुवचनम् आसीत् अत्र द्विवचनमपि आगतमस्ति अतः वयं किं कुर्मः पुटसङ्ख्या सप्तपुटे यद् अस्ति तद् अभ्यासः अत्र कुर्मः अस्तु अहम् एकमेकं पृच्छामि वदन्तु तत्र नर्तक्यः इति अहं पृच्छामि तत्र किं सम्यक् इति एषा नर्तकी अथवा एताः नर्तक्यः इति यत् समीचीनमस्ति तद् वदन्तु अस्तु सम्यक् वा सर्वे तादृशः कर्तुं शक्नुवन्ति वा तादृश अभ्यासः अस्तु अस्तु शोभा भगिनी नर्तक्यः ताः नर्तक्यः समीचीनं नरेश महोदय
गीतं
तत् गीतम् अस्तु इदानीं वंशीसुधा भगिनी आभरणानि एतानि आभरणानि अस्तु गीताञ्जलि भगिनी उपन्यासः एषः उपन्यासः अस्तु जनभाषा मेहुल् महोदय एषा जनभाषा अस्तु तत्र पात्रे उषा भगिनी पात्रे इति
ते पात्रे
समीचीनं कूप्यः वेणुगोपाल् महोदय
एषः कूप्यः
कूप्यः
एषः
अस्तु तत्र कूपी इति कूपी इति स्त्रीलिङ्गे स्त्रीलिङ्गे अस्ति
एताः
कूप्यः तत्र उपरि एतद् कोष्टकमस्ति, यादवः यादवौ यादवाः पुल्लिङ्गे, एकवचनं द्विवचनं बहुवचनं, तदनन्तरं सेना सेने सेनाः स्त्रीलिङ्गे, तदनन्तरम् ईकारान्तस्त्रीलिङ्गपदं मही मह्यौ मह्या अथवा नदी नद्यौ नद्यः, तदनन्तरम् अकारान्त नपुंसकलिङ्गशब्दः सुखं सुखे सुखानि. अस्तु, भगिनी नरेशमहोदय, रघुपतिमहोदय अग्रिमं मापिके.
मापिके स्त्रीलिङ्ग द्विवचनार्थे, अतः एते मापिके.
एते मापिके, अस्तु,
मापिके.
भानुचतुर्मोदि अग्रिमं प्रकोष्ठौ.
एतौ प्रकोष्ठौ.
हा, समीचीनं. तदनन्तरं मधुसूदन महोदय कष्टः. कण्ठः, क्षम्यतां, कण्ठः. एषः कण्ठः, समीचीनं. हा, इदानीं मेहुल् महोदय गुलिका. ताः गुलिकाः, अस्तु, समीचीनं. वंशीसुध भगिनी अग्रिमं तालाः.
तालः इति स्त्रीलिङ्गं महोदय, तालाः इति स्त्रीलिङ्गं बहुवचनं.
तालः इति पुल्लिङ्ग इति मन्ये, ताला तालः
तालः तत्तु एते तालाः.
हा, एते तालाः, समीचीनं. हा, इदानीं रघुपतिमहोदय स्नुषा.
एषा स्नुषा.
हा, एषा स्नुषा, समीचीनं. हा, गीताञ्जलि भगिनी रथौ.
तौ रथौ.
हा, तौ रथौ, समीचीनं. हा, सेवकाः मधुसूदन महोदय.
सेवकाः, ताः सेवकाः.
सेवकः, सेवकः इति पुल्लिङ्गे अस्ति.
सेवकः, अस्तु, ते सेवकाः.
एते सेवकाः. हा, एते सेवकाः, समीचीनं. तत्र एषः एतौ एते पुल्लिङ्गे अस्ति, एषा एते एतः स्त्रीलिङ्गे अस्ति, एतत् एते एतानि नपुंसकलिङ्गे अस्ति, समीचीनम्. अस्तु, नरेश महोदय अग्रे शङ्काः.
शङ्काः, ते शङ्काः.
हा, ते शङ्काः, अस्तु. इदानीं कः भानुचेतन महोदय. बैर्यः, बैर्यः, क्षम्यतां, बैर्यः. बहुवचनं, बैरी इति. एताः बैर्यः, समीचीनं, समीचीनं महोदय. अस्तु, शोभा भगिनी अग्रिमं.
तानि लोकयानानि.
हा, समीचीनं. हा, उषा भगिनी अग्रिमं.
ते मामकाः.
ते मामकाः, समीचीनं. हा, वेणुगोपाल महोदय अग्रिमं.
मामकाः.
एते
ग्रामः. हा, ग्रामः इति. एते ग्रामः, समीचीनं. हा, समीचीनं. वंशीसुध भगिनी अग्रिमम्.
पर्णानि नपुंसकलिङ्गं बहुवचनम्, एतानि पर्णानि.
हा, समीचीनं. हा, मेहुल महोदय अग्रे.
ते घट्यौ.
हा, घटी इति स्त्रीलिङ्गे अस्ति. हा, स्त्रीलिङ्गपदं, समीचीनं महोदय. रघुपति आचार्य महोदय.
श्लोकाः,
एते श्लोकाः, श्लोकः, 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 समीचीनं. हा, गीताञ्जलि भगिनी.
एते अभ्यासाः.
अभ्यासाः, समीचीनं. सूच्यः, अस्तु, नरेश महोदय.
ताः सूच्यः.
ताः सूच्यः, स्त्रीलिङ्गपदं, समीचीनं. हा, मधुसूदन महोदय अग्रिमम्. सा शाटिका, समीचीनं महोदय. अस्तु, तदनन्तरम् उषा भगिनी.
तत् आसनं.
तत् आसनं, हा, समीचीनं. वेणुगोपाल महोदय.
सा माला.
सा माला, समीचीनं. हा, भानुचेतन महोदय. वस्त्रे. भानुचेतनी महोदय अस्ति वा? अस्तु, शोभा भगिनी, अस्तु 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 अस्तु, हा भानुचेतनी महोदय वदतु, वस्त्रे?
एते वस्त्रे.
एते वस्त्रे, हा समीचीनं. शोभा भगिनी अग्रे.
पाण्डवौ, तौ पाण्डवौ.
हा तौ पाण्डवौ, अस्तु. अग्रे मेहुल् महोदय,
कुत्र अस्ति महोदय?
पाण्डवौ, पाण्डवौ कृतम् अग्रिमम्.
द्रौपदेयाः अत्र ताः द्रौपदेयाः अथवा
तत्र द्रौपदी अस्ति, द्रौपदेयः इत्युक्ते तत्र भवान् जानाति खलु दशरथः अस्ति, दाशरथी इति रामस्य नाम अस्ति, वसुदेवः वासुदेवः इति तादृश. द्रुपदः अस्ति, द्रुपदः अस्ति, तस्य पुत्री द्रौपदी. किन्तु द्रौपद्याः पुत्रः द्रौपदेयः इति. एते द्रौपदेयाः. हा समीचीनं महोदय, अस्तु. अग्रे गीताञ्जलि भगिनि. सः नायकः अस्तु. वेणुगोपाल् महोदय.
एते हयाः.
एते हयाः, हयः इति, हा हयवदन, हा संसत्यम् अस्तु. नरेश् महोदय.
एषः पितामहः.
एषः पितामहः, अस्तु. तदनन्तरं रघुपति महोदय अग्रिम.
ते स्यन्दने.
ते स्यन्दने, अस्तु. अग्रे उषा भगिनी.
रथ
स्यन्दनं,
रथ अस्ति वा स्यन्दनं?
रथमिति पुल्लिङ्गं, स्यन्दनम् इति नपुंसकलिङ्गे. रथः पुल्लिङ्गे, स्यन्दनम् इति नपुंसकलिङ्गे भवति.
धन्यवादः भगिनि,
धन्यवादः.
अस्तु, इदानीम् अग्रे यद् अभ्यासः वयं कृतवन्तः इदानीं, तदेव इदानीं प्रश्नवाचकः पदाम् उपयुज्य कुर्मः. तत्र कः, कौ, के, का, के, काः, किं, के, कानि इति तद् उपयुज्य यद् सप्तमपुटे अस्ति तदेव इदानीं कुर्मः, तदेव अभ्यासः. किन्तु कः, कौ, के, का, के, काः, किं, के, कानि इति उपयुज्य कुर्मः. अस्तु, इदानीं द्वयं, त्रयम् इति कुर्मः, त्रयम् इति कर्तुं शक्नुमः. अस्तु, प्रथमतया नरेश् महोदय, नर्तक्यः यद् अस्ति पुटसङ्ख्या सप्तपुटे यद् अस्ति, नर्तक्यः, गीतम्, आभरणानि, तत्र प्रश्नवाचक कः अथवा के इति उपयुज्य प्रथमत्रयं वदतु महोदय.
नर्तक्यः किं गीतं कानि आभरणानि.
कानि आभरणानि, बहु समीचीनं महोदय, अस्तु. अग्रे मेहुल् महोदय अग्रिमत्रयम्. पेज् 7 मध्ये यद् आसीत् तत् तत्रैव, किन्तु प्रश्नवाचक इदानीं.
पेज् नम्बर् 7
यद् यद् वयं कृतवन्तः तत् तस्मिन् एव पुटे. पूर्वं वयम् एषः इति उक्तवन्तः, इदानीं कः इति वदनीयं, तावदेव. तत्र
कः, कौ, के, अग्रिमं त्रीणि शस्त्राणि, लते, रथौ इति वा?
तत्र भवान् इदानीं किं, हा न तत् तत् न कुर्मः, तस्य पूर्वं पेज् सेवेन् मध्ये यत् आसीत् तत्र एव, तत्र नर्तक्यः गीतम् आभरणानि इति अस्ति खलु,
अस्तु उपन्यासः कः उपन्यासः का जनभाषा के पात्रे।
हा समीचीनं महोदय, समीचीनं। हा अस्तु अग्रे शोभा भगिनी। अस्तु वंशीसुधा भगिनी अग्रे।
आं महोदय, कूप्यः इति स्त्रीलिङ्गे बहुवचनम् अस्ति, काः कूप्यः, मापिके इति पुल्लिङ्गे अस्ति बहुवचने, के मापिका स्त्रीलिङ्गे द्विवचनम् अस्ति, के मापिके, प्रकोष्ठौ इति पुल्लिङ्गे द्विवचने अस्ति न महोदय,
प्रकोष्ठं
कौ प्रकोष्ठौ।
हा समीचीनं भगिनि, अस्तु
रघुपति महोदय क्षम्यताम् अहं म्यूट्।
अस्तु 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 भगिनि, हा इदानीं वदतु भगिनि, हा इदानीं वदतु, तत्र कण्ठः इति आरभ्य, कण्ठः गुलिका
गुलिकाः तालाः, कः कण्ठः, काः गुलिकाः, स्त्रीलिङ्ग अस्ति गुलिका, गुलिका गुलिका, काः गुलिकाः, तालाः महोदय किम्?
अहं चिन्तयामि पुल्लिङ्गपदम् इति,
तालः तालाः, के तालाः,
के तालाः, समीचीनं। हा रघुपतिमहोदय अग्रिमत्रयं।
हा का स्नुषा, कौ रतौ, के सेवकाः।
हा समीचीनं। हा वेणुगोपाल महोदय अग्रिमत्रयं।
काः शङ्क्याः,
शङ्काः,
शङ्काः,
बेरी इति स्त्रीलिङ्गपदम् अस्ति, बेर्यः इति बहुवचनरूपम् अस्ति, बेर्यः।
शङ्कः स्त्रीलिङ्ग महोदय,
शङ्कः इति पुल्लिङ्गपदम् इति मन्ये,
के शङ्काः,
तत्र प्रायशः शङ्का इति अपि प्रायशः अस्ति, मम शङ्का अस्ति इति, तदपि संशयः इति अर्थे न जानामि।
शङ्का
समीचीनं, धन्यवादः। अस्तु हा सत्यं, हा अतः पुल्लिङ्ग एव। अस्तु
काः शङ्काः,
शङ्कः, शङ्कः इति पुल्लिङ्गे अस्ति महोदय,
पुल्लिङ्गः, के शङ्काः, काः देर्यः, कानि लोकयानानि।
हा समीचीनम्। अस्तु मधुसूदन महोदय अग्रे।
मामकाः, मामका, ते, के मामकाः,
के मामकाः, समीचीनं।
ग्रामाः, ग्रामं, ग्रामाः, ग्राम, एतानि कानि कानि ग्रामाणि,
तत्र ग्रामः,
ग्रामः, ग्रामः एक
पुल्लिङ्गे अस्ति, पुल्लिङ्गे अस्ति,
कः
कः ग्रामः, किन्तु के,
के ग्रामः,
के ग्रामः, समीचीनं। हा इदानीम् अग्रिमे
ग्रामः, पर्णानि, कानि पर्णानि,
कानि पर्णानि, समीचीनं महोदय, समीचीनं, धन्यवादः। अस्तु वेणुगोपाल महोदय कृतवान्, कः न कृतवान्, अस्तु गीताञ्जलि भगिनी वदतु। अस्तु
धन्यवादः महोदय। ते घट्यौ, के घट्यौ,
हा के घट्यौ,
के श्लोकाः, के अभ्यासाः।
हा सर्वं के एव अस्ति। अस्तु हा उषा भगिनी अग्रे।
सूच्यः पुंलिङ्ग, कः सूच्यः,
सूची, सूची अस्ति भगिनि तत्र,
सूची,
सूची, सूची इति स्त्रीलिङ्गे अस्ति। हा
के सूच्यः,
सूच्यः इति स्त्रीलिङ्गे अस्ति, तत्र का, के, काः इति,
काः,
काः इति,
काः सूच्यः, शाटिका स्त्रीलिङ्गे, का शाटिका, आसनं, किम् आसनं।
हा बहु समीचीनम् अस्ति भगिनि। अस्तु अन्य कः न उक्तवान्, बालचेतन महोदय वदतु इदानीं माला इति.
आं महोदय, का माला वस्त्रं किं के कानि के वस्त्रे कौ पाण्डवौ.
हा समीचीनम् अस्तु. अन्ये अन्य कोऽपि न उक्तवान् वा उक्तवती? सर्वे उक्तवन्तः वा? अस्तु
पुनरेकवारम्
अस्तु वदतु महोदय. रघुपति महोदय वदतु.
द्रौपदेयाः के द्रौपदेयाः, कः नायकः, के हयाः.
समीचीनं, धन्यवादः. अस्तु अग्रे मेहुल्
महोदय
इति हयग्रीवः इति. अश्वः सत्यं सत्यं.
महोदय अहं मामकाः न अवगच्छामि, अन्यरूपं रूपाणि
मम इति अर्थे अस्माकमपि. अस्माकम् इति मामकः पुल्लिङ्गे अस्ति. तत्र भगवद्गीतायाम् एतत् मामकाः अपि इति प्रथमश्लोकः एव भगवद्गीतायां प्रथमश्लोके एव धृतराष्ट्रः पृच्छति, सञ्जयं पृच्छति मामकाः अपि पाण्डवाः किं कुर्वन् सन्ति.
ओके अस्तु महोदय.
मामकः इति मै चिल्ड्रन् इति अर्थे तत्र अस्ति.
मामकाः पाण्डवः सञ्जय
मामकः.
अस्माकं न समीचीनम् इन् दट् केस् मम.
तत्र तादृश अर्थे अस्ति किन्तु मामकः इति यः यं वयं मम इति वक्तुं शक्नुमः
सः मामकः. वाट् डिड् द सन्स् आफ् पाण्डु अण्ड् आल्सो मै पीपल् डु.
मामकः.
धन्यवादः महोदय.
अस्तु अस्तु. इदानीं तत्र एतत् अभ्यासः जातः, तत्र सरल अभ्यासः एव. किन्तु तत्र पुनरेकवारं तत्र यद् वयं कृतवन्तः तस्य विषये कोऽपि वदतु. अस्तु तत्र भेदः कः इति कोऽपि वदतु. अस्तु मेहुल् महोदय तत्र वदतु, एषः एतौ एते इत्युक्ते किं? तत्र लिङ्गं कदा तस्य उपयोगं भवति, एषः एतौ एते इति? मेहुल् महोदय.
आं महोदय, अहं न शृणोमि किमस्ति.
एषः एतौ एते इति कदा तस्य प्रयोगं कुर्मः?
यदि किमपि वयं वक्तुम् इच्छति चेत् अपि यदि ते वस्तु समीपे अस्ति चेत् एषः, पुल्लिङ्गे अस्ति चेत् एषः, स्त्रीलिङ्ग अस्ति चेत् एषा, नपुंसकलिङ्ग अस्ति चेत्
समीपम् अस्ति चेत् एषः, पुल्लिङ्गे एषा, स्त्रीलिङ्गे एतत्, नपुंसकलिङ्गे. दूरम् अस्ति चेत्
सः, दूरमस्ति चेत् पुल्लिङ्गे अस्ति चेत् सः, स्त्रीलिङ्गे सा, अपि च नपुंसकलिङ्गे तत्
इति अस्ति. अस्तु समीचीनं, धन्यवादः महोदय. अस्तु वेणुगोपाल् महोदय, तत्र एतौ एते एते इति यदस्ति तत्र किम् अस्ति? समीपे अस्ति, समीपे अस्ति,
समीपे अस्ति, किन्तु किन्तु यदि स्त्रीलिङ्गे
एतौ इति कथं तस्य प्रयोगं भवति?
एतौ द्विवचने भवति, पुल्लिङ्गे भवति चेत् एतौ, स्त्रीलिङ्गे भवति चेत् एते. अपि च
नपुंसकलिङ्गे अस्ति चेत् एते
एते एव प्रयोगम् एते एव भवति. अस्तु, एतौ बालकौ,
एते बालिका, बालिको, बालिके, एते फले.
फले, समीचीनं महोदय. अस्तु, हा, उषा भगिनी वदतु, एते एताः एतानि इति तत् कदा, तस्य प्रयोगं कदा कुर्मः?
एतत्
न न एते एताः एतानि
एते एताः एते
इदानीं उषा भगिनी, मेहुल् महोदय उक्तवान् एषः, एषा, एतत् कथं तस्य, कदा तस्य प्रयोगः भवति इति सः उक्तवान्. अपि वेणुगोपाल् महोदय एतौ, एते, एते इति तस्य प्रयोगः कदा भवति इति उक्तवान्. इदानीं भवती वदतु, एते, एताः, एतानि कदा तस्य प्रयोगः कुर्मः?
एते नपुंसकलिङ्गे द्वि,
न एतानि अस्ति, एताः अस्ति, एते इति अस्ति.
एते एते नपुंसकलिङ्गे
अस्तु अस्तु
द्वयं
एतानि, एतानि इति, एतानि इति कदा कुर्मः?
नो, एते इस्
अस्तु अस्तु, एते इति त्यजतु भगिनि, इदानीं क्षम्यताम्, एते इति त्यजतु, एतानि इति कदा तस्य प्रयोगं कुर्मः?
बहुवचने
लिङ्गं
समीपे अस्ति,
हा समीपे अस्ति, सत्यं, समीचीनं. हा लिङ्गं,
लिङ्गं नपुंसकलिङ्गं,
हा बहु समीचीनं भगिनि. इदानीं स्त्रीलिङ्गे बहुवचने समीपम् अस्ति चेत् किं भवति? एताः, समीचीनम्. अपि पुल्लिङ्गे,
पुल्लिङ्गे बहुवचनम् एते,
एते, समीचीनं भगिनि. इदानीं दूरम् अस्ति चेत् एते इति न वदामः, किं वदामः?
पुंलिङ्गम् अस्ति चेत् बहुवचनं ते, स्त्रीलिङ्गे अस्ति चेत् ताः, नपुंसकलिङ्गम् अस्ति चेत् तानि.
हा बहु समीचीनमस्ति, धन्यवादः भगिनि. हा तावदेव, हा अस्तु, तत्र एषः, एतौ, एते, एषा, एते, एताः, एतत्, एते, एतानि इति. हा अस्तु, हा तदेव प्रश्नवाचकः अपि. तत्र प्रश्नवाचके तत्र कः कौके एव अस्ति, तत्र दूरमस्ति वा समीपम् अस्ति वा, तत्र भेदः अस्ति वा? तत्र नास्ति, नास्ति. हा प्रश्नः तु सर्वदा कः एव अस्ति, उत्तरे वयं वक्तुं शक्नुमः एषः इति अथवा सः इति, द्वयमपि साधु एव अस्ति. अस्तु, हा इदानीं तदेव अत्र दत्तमस्ति, तत्र कुर्मः अग्रिम. हा वेणुगोपाल् महोदय, भवान् एव अग्रे, अथवा क्षम्यताम्, अस्तु, यः न उक्तवान्, मधुसूदन् महोदय, तत्र पेज् 9, तत्र किमस्ति इति पठतु महोदय तत्र.
एते हंसाः, एतत् जलम्, एताः गोपिकाः, एतानि एतानि वाक्यानि उच्चैः पठत.
तत्र चित्रे, चित्रे अन्य अन्यत् अपि अस्ति महोदय तत्र.
एषः कृष्णः, कृष्णः, एते फले, एते लते, एतौ वृक्षौ, एषा नदी, एतानि कमलानि.
तावदेव, तावदेव, समीचीनं महोदय. हा अस्तु, इदानीं सर्वे अवगच्छन्ति खलु तत्र कदा वयम् एषः, एते, एता, एषा इति तस्य प्रयोगं कदा भवति इति. अस्तु, हा इदानीं वदतु महोदय तत्र एतानि वाक्यानि इति.
एतानि वाक्यानि उच्चैः पठत. सः पार्थः, तौ
धनुर्धरौ ते सैनिकाः सा कुन्ती ते सैनिके ताः सख्यः तत् महाभारतं ते काव्ये तानि पुराणानि
समीचीनं महोदय तावदेव इदानीं तत्र वंशीसुता भगिनी तत्र सः पार्थः इति अस्ति तत्र तत्र सः पार्थः तस्य द्विवचनरूपम् अपि बहुवचनरूपं वदतु तत्र सः पार्थः
तौ पार्थौ ते पार्थाः
हा समीचीनं भगिनि हा इदानीं नरेश महोदय तत्र धनुर्धरः इति तौ धनुर्धरौ इति अस्ति तत्र एकवचनमपि बहुवचनरूपं वदतु तत्र हा समीचीनम् अस्तु गीताञ्जलि भगिनी तत्र ते सैनिकाः इति अस्ति तस्य अन्यद्वयरूपं वदतु
सः सैनिकः तौ सैनिकौ ते सैनिकाः
हा समीचीनं भगिनि हा इदानीं शोभा भगिनी सा कुन्ती इति अस्ति तत्र तत्र अन्यत् अपि वदतु अन्यरूपं
सा कुन्ती एकनिमिषं महोदय सा कुन्ती ते कुन्त्यौ ताः कुन्त्याः
कुन्त्यः मही मह्यो मह्यः नदी नद्यौ
नद्यः
समीचीनं भगिनि हा इदानीं वेणुगोपाल् महोदय तत्र ते सैनिके वेणुगोपाल् महोदय
अस्तु महोदय
न तत्र सैनिके इति अस्ति सैनिके इति अस्ति
सैनिके अस्ति
सैनिका इति तद् स्त्रीलिङ्गे अस्ति
अस्तु सा सैनिका ते सैनिके ताः सैनिकाः
हा समीचीनं महोदय हा धन्यवादः इदानीं वंशीसुधा भगिनी उक्तवती वा
आं महोदय
अस्तु हा उषा भगिनी
ताः सख्यः स्त्रीलिङ्ग सा सखी
हा समीचीनं भगिनि बहु समीचीनं हा सा सखी
सखी सख्यौ
सख्यः समीचीनं हा इदानीं सा सखी
सख्यः
इदानीं वदतु सा सखी द्विवचने
सा सखी ते सख्यौ ताः सख्यः
हा समीचीनं भगिनि धन्यवादः अस्तु नरेश महोदय
तत् महाभारतं ते महाभारते तानि महाभारतानि
महाभारतानि हा रघुपति महोदय
महोदय कुत्र अस्ति महोदय कुत्र वयं स्मः
पेज् 9 महोदय पेज् 9
पेज् 9 वार्ता धनुत्रौ सैनिक ओके ते काव्ये ओके तत् काव्यं ते काव्ये तानि काव्यानि
समीचीनं महोदय समीचीनम् अस्तु भानुचैतन्य महोदय अग्रिमं
महोदय
पेज् 9 तानि पुराणानि समीचीनम् अस्तु अग्रे मेहुल् महोदय अग्रे एषः कृष्णः इति तत्र एकवारं सर्वं एकवारं पठतु महोदय
क्षम्यतां महोदय अहं कार्याने अस्मि अतः अधुना
अस्तु 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 चिन्ता मास्तु महोदय अस्तु नरेश महोदय अग्रे तत्र पठतु महोदय तत्र एषः कृष्णः सर्वम् अस्ति तत्
आं महोदय एषः कृष्णः एतौ वृक्षौ एते हंसाः एषा नदी एते लते एताः गोपिकाः एतत् जलम् एते फले एतानि कमलानि.
हा समीचीनं महोदय. हा इदानीं मधुसूदन महोदय, एषः कृष्णः यद्यस्ति तस्य द्विवचन बहुवचनरूपं वदतु महोदय.
एषः कृष्णः, एतौ कृष्णौ, एते कृष्णाः.
एते कृष्णाः समीचीनं. हा इदानीं वेणुगोपाल महोदय अग्रिमम्.
आम् महोदय. एषः वृक्षः, एतौ वृक्षौ, एते वृक्षाः.
एते वृक्षाः समीचीनम्. एते वृक्षाः समीचीनं. हा अस्तु शोभा भगिनी अग्रिमम्.
वृक्षः वृक्ष हंसाः, एते हंसाः, बहुवचनम् अस्ति वा
अत्र? बहुवचनम् एते इति बहुवचने अस्ति.
हंसः पुंलिङ्गः. एषः हंसः, एतौ हंसौ, एते हंसाः.
हा समीचीनं भगिनि. हा इदानीं गीताञ्जलि भगिनि अग्रिमम्.
एषा नदी, एते नद्यौ, एताः नद्यः.
हा समीचीनं भगिनि. वंशीसुधा भगिनि.
आम् महोदय. एते लते, लता इति स्त्रीलिङ्गं भवति. एषा लता, एते लते, एताः लताः.
हा समीचीनं. हा अग्रे
एषः गोपिका.
हा उषा भगिनी वदतु वदतु भगिनी. हा वदतु. हा
एषा गोपिका, एते गोपिके, एताः गोपिकाः.
हा समीचीनं भगिनी धन्यवादः. हा रघुपति महोदय अग्रे.
हा महोदय. एतत् जलम्, एते जले, एतानि जलानि.
हा इति अस्तु समीचीनम्. अग्रे मधुसूदन महोदय.
महोदय एतत् फलं, फलं एते फले, एतानि फलानि.
हा समीचीनम् अस्तु. अन्तिमं अस्तु भानुचितिनि महोदय अन्तिमम्.
एतत् कमलम्, एते कमले, एतानि कमलानि.
हा अस्तु. इदानीं तत्र एतत् सर्वं बहु सर्वरूपं एकवचने वा द्विवचने वा बहुवचने वा तत्र यद्यत् पदं दत्तमस्ति तस्य रूपं रूपाणि वयं दृष्टवन्तः अद्य. अस्तु इदानीम् अग्रे गच्छामः. तत्र हा एतावत् वयं किं कृतवन्तः इत्युक्ते अकारान्त पुल्लिङ्ग अपि नपुंसकलिङ्गशब्दानाम् अभ्यासं कृतवन्तः, अपि आकारान्त अपि ईकारान्त स्त्रीलिङ्गपदस्य अभ्यासं कृतवन्तः. तस्य अग्रे किं भवति इत्युक्ते तत्र कविः इकारान्त पुल्लिङ्गशब्दः तत्सर्वम् आगच्छति. तद् इदानीं मास्तु, वयम् अग्रिम अभ्यासः यत् अस्ति अग्रिमपुटे तद् कृत्वा समापयामः. तत्र प्रथम अभ्यासः तु वयं कृतवन्तः इति पेज् 10 मध्ये यदस्ति तत्र प्रथम अभ्यासः तु वयं कृतवन्तः, किन्तु द्वितीय अभ्यासः कुर्मः तत्र. तत्र द्वितीय अभ्यासः कः? अशोभा भगिनी पठति वा तत्र द्वितीय अभ्यासः दशम.
आम् महोदय. एतानि रूपाणि पठित्वा एतेषाम् उत्तराणां प्रश्नवाक्यानि लिखत. यथा एषः ग्रन्थालयः, एषः कः? प्रथमतया एते छात्राः, एते काः,
छात्रः इति एते इति अस्ति एते इति दशमपुटे
पुंलिङ्गः भवति
पुल्लिङ्गः भवति समीचीनं
छात्रः छात्रा स्त्रीलिङ्गः अस्ति एते
किन्तु एते इति अस्ति
द्वयं भवति वा एते एते छात्राः अपि एते छात्राः स्त्रीलिङ्ग पुंलिङ्गे
न न
एते बहुवचन एताः छात्राः ओके एते छात्राः के छात्राः
के छात्राः इति
के छात्राः
किन्तु के छात्राः इति प्रश्नः प्रश्नः किम् अस्ति
एते छात्राः
किन्तु प्रश्नः क तत्र उदाहरणं पश्यतु एषः ग्रन्थालयः प्रश्नः किम् एषः कः इदानीम् एते छात्राः
एते
तदनन्तरं हा तावदेव प्रश्नः समीचीनं भगिनि एते के इति तत्र छात्राः स्त्रीलिङ्गे अस्ति इति तदपि भवति आसीत् चेत् पूर्वं किं भवति एते न किन्तु
स्त्रीलिङ्गे एषा एते एताः भवति
एताः भवति तस्मिन् प्रसङ्गे प्रश्नः कः भवति
एताः काः
समीचीनं भगिनि धन्यवादः समीचीनम् अस्तु गीताञ्जलि भगिनि अग्रिमम्
एतत् मन्दिरम् एतत् किं
हा समीचीनं नरेश महोदय तृतीय
एताः सञ्चिकाः एताः काः
हा समीचीनम् उषा भगिनी चतुर्थ
एतौ सहोदरौ कौ सहोदरौ
न तत्र एषः ग्रन्थालयः एषः कः इति अस्ति
ग्रन्थालयः
न भगिनी अत्र उदाहरणे एषः ग्रन्थालयः एषः कः इति प्रश्नः अस्ति
एतौ कौ
हा समीचीनं धन्यवादः एतौ कौ रघुपतिमहोदय अग्रिमम्
एषा सखी एषा का
एषा का अस्तु पानचेतने महोदय
एते बान्धवाः एते बान्धवः
एते के समीचीनं वेणुगोपाल महोदय अग्रिमं
सः सचिवः कः सः कः
सः कः अस्तु मधुसूदन महोदय अग्रिमं
कानि पर्णानि तानि कानि
तानि कानि समीचीनम् अस्तु वंशीसुत भगिनि अग्रिमं
ते नक्षत्रे नक्षत्रम् इति नपुंसकलिङ्गे अस्ति ते एतान् ते कानि
नक्षत्रे इति समीचीनम् अस्तु अग्रे उषा भगिनि अग्रिमं
तौ कार्यालयौ तौ कौ
अस्तु रघुपति महोदय शोभा भगिनी अग्रिमम् अन्तिमं
सा वृद्धा सा का
समीचीनम् अस्तु अस्तु समयः जातः किन्तु किञ्चित् एव कृतवन्तः किन्तु समीचीनमेव अस्ति वयं गीतासोपानस्य आरम्भं कृतवन्तः अग्रिमवर्गे वयम् अजन्ताः शब्दाः इति तद् भागम् अग्रिमवर्गे कुर्मः अस्तु इदानीं
विज्ञापिका इति अर्थं महोदय
कुत्र भगिनि
एकादश वा
विज्ञापिकाः
विज्ञापनम् एडवर्टैस्मेण्ट्
विज्ञापिका
विज्ञापनम् एडवर्टैस्मेण्ट् अस्ति आर् रिक्वेस्ट्
अहं पश्यामि महोदय.
अस्तु, अन्य प्रश्नः अस्ति वा? अस्तु, नो चेत् विरमाम. सर्वेभ्यः नमस्कारः, अग्रिमवर्गे मिलामः. धन्यवादः.
धन्यवादः महोदय.
धन्यवादः महोदय.